रेडियो नेपालस्य पञ्चसप्ततितम स्थापना दिवसस्य हीरक महोत्सवस्य अवसरे सकल श्रोतृवर्गम विज्ञापनदातृन् शुभेच्छुकान् च प्रति हार्दिम मंगलमयीम् शुभकामनाम् अभिव्यज्य सार्वजनिक सेवा प्रसारणे आत्मानम् परिवर्तन तनम विधाय रेडियो नेपाल आगामी दिनेषु स्वस्य प्रसारणम इतोपि प्रभावकारी विधातुम प्रतिबद्धताम अभिव्यनक्ति। एषा रेडियो नेपाल सम्प्रति समाचारा श्रूयन्ताम्। प्रवाचक उपेन्द्र दाहाल। रेडियो नेपाल अद्य स्वस्य स्थापनानन्तरं चतुस्सप्ततितमं वर्षं सम्पूर्य पञ्चसप्ततितमे वर्षे प्रविष्टोऽस्ति। सप्तोत्तर द्विसहस्रतमस्य विक्रमवर्षस्य चैत्रमासस्य विंशे दिवसे प्रारब्धः रेडियो नेपालः देशस्यैव सर्वाधिकः प्राचीनः ज्येष्ठः प्रसारक माध्यमो वर्तते। सम्प्रति रेडियो नेपालः सार्वजनिक सेवा प्रसारणे रूपान्तरितोऽस्ति। एतत् सन्दर्भे सार्वजनिक सेवा प्रसारण रेडियो नेपालस्य पञ्चसप्ततितम वार्षिकोत्सवस्य हीरेक महोत्सवस्य अवसरे सिंह प्रासाद वर्तिनी केन्द्रीय कार्यालये ह्य आयोजितायाम् काव्यगोष्ठ्याम् सप्तदश कवयः कविता गजल गीतादीनि प्रस्तुतवन्तः। कार्यक्रमे रेडियो नेपालस्य अन्य प्रादेशिक कार्यालयानाम् कर्मचारीभिरपि जुम प्रविधिर्माध्यमेन प्रस्तुतिः उपस्थापिता आसीत्। ह्य रेडियो नेपालस्य केन्द्रीय कार्यालयात् प्रारभ्य प्रातःकालिक परिक्रमा माहिती घर मण्डला भद्रकाली पुतली सड़क न्यू प्लाजा अनाम नगर हनुमान स्थान मार्गेण रेडियो नेपालस्य प्राङ्गणे सम्प्राप्य सम्पन्नम् आसीत्। संघीय संसद शीतकालिक अधिवेशनम् गतरात्रौ समाप्तम् वर्तते। सभामुख देवराज घिमिरे प्रतिनिधि सभायाः ह्यस्तनोपवेशे राष्ट्रपतिना रामचन्द्र पौडेलेन गतरात्रौ द्वादशवादनात् संघीय संसदः शीतकालिकाधिवेशनस्य अन्त्यं विहितम् अस्तीति घोषणां विहितवान् आसीत्। सर्वकारस्य परामर्शेन राष्ट्रपतिना पौडेलेन संघीय संसदः वर्तमानाधिवेशनस्य अन्त्यं विहितम् आसीत्। एतत्पूर्वम् प्रतिनिधिसभाया ह्यस्तनोपवेशेन प्रतिनिधिसभाया सदस्यस्य दीपक बोहरा इत्यस्य निधनं प्रति शोकप्रस्ताव पारितीकृत आसीत्। राष्ट्रिय प्रजातन्त्रदलस्य वरिष्ठ नेतुः बोहरा इत्यस्य ह्य निधनं सम्भूतमासीत्। बोहरा 79-2000 वैक्रमाब्दस्य निर्वाचने रूपन्देही जनपदस्य तृतीय निर्वाचनक्षेत्रात् राप्रपा दलस्य पक्षतः निर्वाचित आसीत्। प्रधानमन्त्री केपी शर्मा ओली थाइल्याण्ड देशस्य औपचारिक भ्रमणाय बिम्स्टेक संघटनस्य षष्ठे शिखर सम्मेलने भागं ग्रहीतुं च ह्य थाइल्याण्ड देशस्य बैंकक नगरं सम्प्राप्तवान् वर्तते। प्रधानमन्त्रिणः ओलिनः सुवर्णभूमि अन्तर्राष्ट्रिय विमानस्थलस्य विशिष्ट कक्षे थाइल्याण्ड देशस्य उपप्रधान यातायात मन्त्रिणा सुरिपा जंगाउन ग्रेङकिट इत्यनेन संस्कृति खेलकूद मन्त्रिणा सोराबोङ थेन वोड इत्यनेन थाइल्याण्ड देशस्य कृते नेपाली राजदूतेन धनबहादुर ओलिना नेपालस्य कृते थाइल्याण्ड देशस्य राजदूतेन साबापोङ रिटिसोन इत्यनेन च स्वागतम् विहितम् आसीत्। थाइल्याण्ड देशस्य प्रधानमन्त्रिणा पेथोङ थान सिनावाद इत्यस्य मैत्रीपूर्णायाम् निमन्त्रणायाम् नेपालस्य प्रधानमन्त्रिणा प्रथमवारं थाइल्याण्ड देशस्य भ्रमणं विधीयमानं वर्तते। तत्पूर्वं प्रधानमन्त्रिणम् ओलिनम् त्रिभुवनान्तर्राष्ट्रिय विमानस्थलस्य अतिविशिष्ट कक्षे उपप्रधानमन्त्री प्रकाशमान सिंह मन्त्रिणः सर्वकारस्य उच्चपदस्थाधिकारिणः सुरक्षानिकायानाम् प्रमुखाश्च प्रास्थापनिका अभिवादनम् अर्पितवन्तः। भ्रमणस्य क्रमे प्रधानमन्त्रिणः ओलिनः एतस्य समकक्षिणश्च मध्ये नेपाल थाइल्याण्ड देशस्य सम्बन्धस्य विविधेषु विषयेषु विमृक्ष्यते इति परराष्ट्र मन्त्रालयेन ज्ञापितमस्ति। प्रधानमन्त्री ओली अस्यैव चैत्रमासस्य द्वाविंशे दिवसे बिम्स्टेक शिखर सम्मेलने सहभागी भविष्यति। तस्मिन्नेव दिने प्रधानमन्त्री ओली सम्मेलनं सम्बोधयिष्यति च। प्रधानमन्त्री ओली बिम्स्टेक शिखर सम्मेलने सहभागिनां राष्ट्राणां प्रमुखाणां सर्वकार प्रमुखाणां च सम्माने आयुक्षमाणे रात्रि भोजका समारोहे च सहभागी भविष्यति। शिखर सम्मेलनस्य क्रमे सदस्य राष्ट्राणाम् समकक्षिभिः राष्ट्रप्रमुखैश्च सह प्रधानमन्त्रिणः ओलिनः मेलवार्तायाः कार्यक्रमश्च निर्धारितो वर्तते। प्रधानमन्त्री ओली अस्यैव चैत्रमासस्य त्रयोविंशे दिवसे स्वदेशम् प्रत्यागन्ता। सर्वकारेण प्रदेशेभ्यः स्थानीयस्तरेभ्यश्च आगामी त्रिषु वर्षेषु प्रदेयस्य राजस्वस्य वितरणस्य विस्तृतः आधारः प्रारूपं च स्वीकृतमस्ति। मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिक कुर्वन् संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ आगामिषु त्रिषु वर्षेषु प्रदेयस्य राजस्वस्य वितरणस्य विस्तृत आधार प्रारूपं च स्वीकृतम् अस्तीति अज्ञापयत्। एवमेव उपवेशेन सम्प्रत्येव दुरापन्नाद् भूकम्पात् प्रभाविते म्यान्मार देशे औषधादि सहयोग सामग्रीभिः सह नेपाली सेनायाः चिकित्सक समूहम् प्रेषयितुम् निर्णीतम् अस्तीति अज्ञापयत्। एवमेव उपवेशेन परराष्ट्र विषयाध्ययन प्रतिष्ठान सम्बद्धस्य विधेयकस्य प्रारूपम् निर्मातुम् स्वीकृतिम् प्रदातुम् नेपाल ट्रक एक्सचेज संस्थायाः रिक्त प्रमुख कार्यकारीधिकृत पदे चूडामणि चापागाई इत्यस्य नियुक्तिम् विधातुम् कालीमाटी फल व्यञ्जनापण विकास समिति कार्यकारी निर्देशक पदे डा प्रद्युम्न राजपाण्डियम् नियुक्तुम् च निर्णीतम् अस्तीति सर्वकारस्य प्रवक्ता च संचार मन्त्री गुरूङ अज्ञापयत्।